वत्सलं कृपालुशीलकोमलं भजामि ते पदाम्बुजम् अकामिनां स्वधामदं निकामश्यामसुन्दरं भवाम्बुनाथमन्दरं प्रफुल्लकञ्जलोचनं मदादिदोषमोचनम् प्रलम्ब बाहुविक्रमं प्रभो प्रमेयवैभवं निशङ्गचापसायकं धरं त्रिलोकनायकं दिनेशवंशमण्डनं महेशचापखण्डनं मुनीन्द्रसन्तरञ्जनं सुरारिवृन्दभञ्जनम् मनोजवैरिवन्दितम् अजादिदेवसेवितं विशुद्धबोधविग्रहं समस्तदूषणापहं नमामि इन्दिरापतिं सुखाकरं सतां गतिं भजे सशक्तिसानुजं शचीपतिप्रियानुजम् त्वदङ्घ्रिमूलये नरा भजन्ति हीनमत्सराः पतन्ति नो भवार्णवे वितर्कवीचिसङ्कुले विविक्तवासिनः सदा भजन्ति मुक्तये मुदा निरस्य इन्द्रियादिकं प्रयान्ति ते गतिं स्वकम् तमेकमद्भुतं प्रभुं निरीहमीश्वरं विभुं जगद्गुरुं च शाश्वतं तुरीयमेव केवलं भजामि भाववल्लभं कुयोगिनां सुदुर्लभं स्वभक्तकल्पपादपं समन्सुसेव्यमन्वहम् अनुपरूपभूपतिं नतोऽहमुर्विजापतिं प्रसीद मे नमामि ते पदाब्ज भक्ति देहि मे पठन्ति ये स्तवम् इदं नरादरेण ते पदं व्रजन्ति नात्र संशयं त्वदीय भक्ति संयुता देववन्दनं दिनेशवंशनन्दनं सुशोभिभालचन्दनं नमामि राममीश्वरं मुनीन्द्रयज्ञकारकं शिलाविपत्तिहारकं महाधनुर्विदारकं नमामि राममीश्वरम् स्वतात् वाक्यकारिणं तपोवने विहारिणं करेषु चापधारिणं नमामि राममीश्वरं कुरंगमुक्तसायकं जटायुमोक्षदायकं प्रविद्धकीशनायकं नमामि राममीश्वरम् लवङ्गसङ्घसम्मतिं निबद्धनिम्नगापतिं दशास्य वंशसंशतिं नमामि राममीश्वरं विदीनदेवहर्षणं कपीप्सितार्थवर्षणं स्वबन्धुशोककर्षणं नमामि राममीश्वरम् गतारिराज्यरक्षणं प्रजाजनार्तिभक्षणं कृतास्तमोहलक्ष्मणं नमामि राममीश्वरं हृदाखिलाचलाभरं स्वधामनीतनागरं जगत्तमोदिवाकरं नमामि राममीश्वरं इदं समाहितात्मना नरोरघूत्तमाष्टकं पठन् निरन्तरं भयं भवोद्भवं न विन्दते।